सर्वेभ्यो नमस्कारः। गतवर्गे वयं चेत् नो चेत् अपि यतः अतः इति तस्य विषये किञ्चित् चर्चितवन्तः। अद्य तदपि पुनः एकवारं दृष्ट्वा किञ्चित् अग्रे गच्छामः। यः सः इति तादृशप्रयोगः तत् सर्वं द्रक्ष्यामः। अस्तु, अत्र चेत् नो चेत् इति तस्मिन् विषये अपि यतः ततः तस्मिन् विषये अपि गृहपाठः आसीत्। यतः अस्तु, यतः अतः इति, यतः इत्युक्ते किं, कोऽपि वदति वा?
Because.
अस्तु, अतः
therefore.
अस्तु, इदानीं यतः अतः इति द्वयमपि उपयुज्य कोऽपि वाक्यं वदति वा?
आं महोदय,
नरेश महोदय वदतु।
यतः वातावरणं समीचीनम् अस्ति, अहं प्रातःकाले भ्रमणार्थं गतवान्।
समीचीनं महोदय।
यतः
तदेव वाक्यं, अतः इति उपयुज्य वक्तुं शक्नोति वा?
अतः
तदेव वाक्यं,
यतः वातावरणं समीचीनम् अस्ति अतः अहं प्रातःकाले।
तत्र महोदय यतः अस्ति चेत् अतः पदस्य आवश्यकता नास्ति।
आम् आम्, वातावरणं समीचीनम् अस्ति अतः अहं प्रातःकाले भ्रमणार्थं गतवान्।
हा, समीचीनं महोदय, समीचीनं, धन्यवादः। अन्यत् वाक्यम् अस्ति वा?
आम्, यतः मम मित्रं गृहे पठितुं न शक्नोति, सः ग्रन्थालयं गतवान्।
इदानीम् अतः उपयुज्य,
मम मित्रं गृहे पठितुं न शक्नोति अतः सः ग्रन्थालयं गतवान्।
हा, समीचीनं महोदय, धन्यवादः। इदानीम् अन्य कः वदति, वक्तुमिच्छति? वेणुगोपाल महोदय वदति वा?
आम् महोदय।
अस्तु,
सः दुर्बलः, अतः सर्वे जनाः तस्मै पाठितवन्तः। सः बहु निर्धनः।
द्वितीयभागं किम् अस्ति महोदय? अतः सर्वे,
सः दुर्बलः, अतः सर्वे जनाः, तस्मै ताडितवन्तः। अस्तु,
तस्मै ताडितवन्तः वा? तत्र किं, तं ताडितवन्तः इति, सः इति सः तौ ते, तं ते,
तं ते, सः बहु निर्धनः, अतः तस्य पार्श्वे खादितुं किञ्चित् एव भोजनं नास्ति।
किञ्चिदपि भोजनं नास्ति, किञ्चित् एव भोजनम् अस्ति इति वक्तुं शक्नुमः? नाट् इवन् लिटिल् फुड् चेत् किञ्चिदपि भोजनं,
किञ्चिदपि भोजनं नास्ति। अस्तु, धन्यवादः।
तदेव इदानीं वाक्यद्वयं भवान् यतः उपयुज्य उक्तवन्तः, इदानीम् अतः उपयुज्य,
अतः सर्वे प्रथमवाक्यं सर्वे जनाः तं सः तं ताडितवन्तः यतः
वेणुगोपाल् महोदय अस्तु अस्तु भवतः प्रथमवाक्यं किम् आसीत्
सः दुर्बलः अतः सर्वे जनाः तं ताडितवन्तः
अस्तु तत् अत्र तत्र अतः इति अस्ति इदानीं यतः उपयुज्य वदतु
यतः सर्वे जनाः
भागद्वयमस्ति तत्र
अस्तु
अतः इति अतः इति मध्ये अस्ति इति चिन्तयतु अतः पूर्वं भवान् किम् उक्तवान् सः दुर्बलः इति
सः दुर्बलः
तत् कारणमस्ति
कारणमस्ति
अतः देर्फोर् तदनन्तरम् एफेक्ट् अस्ति
अस्तु
कास् अस्ति कारणमस्ति कार्यमस्ति मध्ये अतः इति अस्ति
अतः इति अस्ति अस्तु
अतः इति देर्फोर् इति सत्यं खलु
अस्तु महोदय
इदानीं कारणं पूर्वम् अस्ति कार्यम् अनन्तरम् अस्ति
अस्तु
यतः इत्युक्ते
यतः सः दुर्बलः सर्वे जनाः तं ताडितवन्तः
तदपि तदपि वक्तुं शक्नोति
अस्तु सः दुर्बलः यतः यतः सः दुर्बलः सर्वे जनाः तं ताडितवन्तः
तदपि अथवा सर्वे जनाः तं ताडितवन्तः यतः सः दुर्बलः तदपि वक्तुं
शक्नोति
तदेव तद्रूपमेव अभ्यासपुस्तके अस्ति किन्तु अवगन्तुं शक्नुमः अस्तु इदानीं द्वितीयवाक्यं
द्वितीयवाक्यम् अथ उपयुज्य सः बहु निर्धनः अतः तस्य पार्श्वे खादितुं किञ्चित् अपि भोजनं नास्ति तस्य पार्श्वे खादितुं किञ्चित् अपि भोजनं नास्ति अतः सः बहु निर्धनः यतः अस्तु अस्तु यतः सः बहु निर्धनः
सः बहु निर्धनः
बहु निर्धनः
अस्तु समीचीनं महोदय तत्र यतः अतः एते अस्तु समीचीनम् अस्ति महोदय अस्तु अग्रे शोभा भगिनी वदति वा
आम् महोदय
अस्तु
गृहात् बहिः कोलाहलं भवति अतः सः निद्रां न करोति
कोलाहलः भवति
कोलाहलः भवति सः निद्रां न करोति यतः गृहात् बहिः कोलाहलः भवति
समीचीनं भगिनि
नयागरजलपातं बृहत् अस्ति अतः रमणीयम् अस्ति नयागरजलपातं रमणीयम् अस्ति यतः तत् बृहत् अस्ति
नयागर तदनन्तरं किं
जलपातं
जलपातम् अस्तु अस्तु भगिनि तत् नपुंसकलिङ्गे अस्ति अस्तु अतः तत् इति वक्तुं
महोदय
अस्तु समीचीनं भगिनि
तावदेव महोदय
धन्यवादः भगिनि अस्तु वंशी सुधा भगिनी वदति वा अग्रे
आं महोदय प्रथमं यतः वाक्यमहं वदामि वयमपि संस्कृतं वदन्ति यतः अस्माकं संस्कृतसम्भाषणस्य अभ्यासः अस्ति
वयमपि संस्कृतं
वदन्ति
वदामः
वदामः वयमपि संस्कृतं वदामः
संस्कृतेन वदामः संस्कृतेन वदतु
वयमपि संस्कृतेन वदामः यतः अस्माकं संस्कृतसम्भाषणस्य अभ्यासः अस्ति
यतः
अस्माकं संस्कृतसम्भाषणस्य अभ्यासः अस्ति
समीचीनं भगिनि
वाक्यं परिवर्तनमहं
करोतु करोतु
अस्माकं संस्कृतसम्भाषणस्य अभ्यासः अस्ति अतः वयमपि संस्कृतेन वदामः
हा समीचीनं भगिनि अस्तु
अद्य उष्णम् अधिकम् अस्ति अतः शीतजलं पास्यामि अहं शीतजलं पास्यामि यतः अद्य उष्णम् अधिकम् अस्ति
समीचीनं भगिनि धन्यवादः
धन्यवादः
रमाबाई भगिनि वदति वा
आं महोदय आचार्यः शिष्यं श्लाघितवान् यतः शिष्यः उत्तमकार्यं कृतवान् शिष्यः उत्तमकार्यं कृतवान् अतः आचार्यः शिष्यं श्लाघितवान्
समीचीनं भगिनि
अनन्तरं अहं त्रयोदशदिनाङ्कतः पञ्चविंशतिदिनाङ्कपर्यन्तं प्रशिक्षण शिबिरं गमिष्यामि अतः अहं आगामि सप्ताहद्वयं गीतासोपानवर्गं न आगमिष्यामि अहम् आगामि सप्ताहद्वयं गीताशोभनवर्गं न आगमिष्यामि यतः अहं त्रयोदशदिनाङ्कतः पञ्चविंशतिदिनाङ्कपर्यन्तं प्रशिक्षणशिबिरं गमिष्यामि
समीचीनं भगिनि अस्तु धन्यवादः भगिनि अस्तु भानुचेतनी महोदय वदति वा अथवा रघुपति आचार्य महोदय वदति वा
हा महोदय
अस्तु रघुपति महोदय वदतु
अहं संस्कृतं सम्यक् न जानामि अतः अहं भवतः वर्गे अस्मि अहं भवतः वर्गे अस्मि यतः अहं संस्कृतं सम्यक् न जानामि
अस्तु महोदय समीचीनम्
अहम् अस्वस्था आसम् अतः गतवर्गे न आगतवान् अहं गतवर्गे न आगतवान् यतः मम आरोग्यं सम्यक् न आसीत् आरोग्यं वा पुल्लिङ्ग् नपुंसकलिङ्गं
आरोग्यम् इति मन्ये महोदय
सम्यक् न आसीत्
समीचीनं महोदय समीचीनं धन्यवादः भानुचेतनी महोदय वदति वा
आं महोदय अद्य उत्सवम् अस्ति यतः चिन्मयजयन्ती महोत्सवं अस्ति
अद्य अहं सन्तुष्टः अस्मि इति प्रायशः नो चेत् उत्सवः
अद्य महान् दिनः अस्ति यतः चिन्मयजयन्ती उत्सवम् अस्ति
जयन्ती अद्य भवति अथवा अद्य अस्ति अस्तु अद्य तत्र महान् दिनः वा महत् दिनम् इति
ग्रेट् डे
हा किन्तु दिनम् इति नपुंसकलिङ्गे अस्ति खलु
दिनः अपि अस्ति
नपुंसकलिङ्गे एव
अतः महत् इति प्रायशः अद्य महत् दिनम् अस्ति यतः इति तादृश कर्तुं शक्नुमः इति मन्ये अनुचित
महोदय
पुनरेकवारं वाक्यं वदतु
अद्य महान् महत् दिनम् अस्ति यतः
अद्य यतः तत्रापि अद्य चिन्मयजयन्ती अस्ति अथवा अद्य चिन्मयजयन्ती आचरामः इति जयन्तीम् आचरामः इति अथवा जयन्ती अस्ति इति तदपि सम्यक् अस्ति इदानीं परिवर्तनं करोतु
अद्य चिन्मयजयन्ती अस्ति यतः महोदय अतः
न न इदानीम् अतः इति भवान् उपयोगं कृतवान्
महोदय
इदानीम्
अद्य चिन्मयजयन्ती अस्ति
क्षम्यतां भवान् किम् उक्तवान् क्षम्यतां मम दोषः पुनरेकवारं भवतः वाक्यं वदतु क्षम्यताम्
अद्य महद्दिनम् अस्ति यतः चिन्मयजयन्ती भवति
अस्तु अस्तु यतः इति अस्तु इदानीम् अतः उपयुज्य अद्य
महद्दिनम् अस्ति
न इदानीम्
अस्ति अतः महान् महद्दिनं भवति
अस्तु समीचीनं महोदय प्रथमं यतः प्रथमवाक्ये यतः इति आसीत् द्वितीयवाक्ये अतः इति अस्ति अस्तु समीचीनं महोदय अस्तु
महोदय क्षमतां दिन द्विलिङ्ग अस्ति पुल्लिङ्ग अपि अस्ति नपुंसकलिङ्ग अपि अस्ति
अस्ति वा
दिन
अस्तु अस्तु अतः पनचेतन महोदय महान् एव महान् अपि समीचीनमेव
तदेव अहं चिन्तयामि दिन
अस्तु मम मनसि दिनम् इति एव आसीत् नपुंसकलिङ्गे इति अहं चिन्तितवान् अस्तु तत्र दिन इति अकारान्तपदं वा महोदय रघुपतिमहोदय
तत्तु अहं न जानामि महोदय अत्र स्पोकन् संस्कृत मध्ये अस्ति पुल्लिङ्ग अपि च
उदाहरणमस्ति
एकनिमिषं दिन
पुल्लिङ्गरूप
पश्यामि दिनद्वयं दिनद्वयं दिन कति दिनानि दिनानि केवलं नपुंसकलिङ्ग एव अस्ति उदाहरणम् उदाहरणं नपुंसकलिङ्ग एव अस्ति
यदि यदि वयम् एकमपि उदाहरणं न पश्यामः वयं चिन्तयामः अस्तु तत्र पुल्लिङ्गरूपं नास्ति केवलं नपुंसकम् एव अस्ति इति अतः अहं पृष्टवान् उदाहरणं कीदृश उदाहरणम् अस्ति इति अस्तु अन्वेषणं कुर्मः अस्तु किन्तु पुल्लिङ्गरूपम् अस्ति चेत् महान् समीचीनमेव अस्तु
दिनाङ्कः दिनाङ्कः अस्ति
दिनाङ्कः तु अन्यपदम् अस्ति खलु महोदय दिन इति दिन अपि दिनाङ्कः वदतु महोदय
द्वितीयवाक्यं मया गुरुः पार्श्वे गन्तव्यं यतः बुद्धिः मूढा भवति
मया गुरोः पार्श्वे
गन्तव्यं यतः मम बुद्धिः मूढा भवति
इदानीं परिवर्तनं
मम बुद्धिः मूढा अस्ति अतः गुरोः पार्श्वे
गन्तव्यं मया गन्तव्यं गुरोः पार्श्वे मया गन्तव्यं समीचीनं महोदय उषा भगिनी यदि वक्तुम् इच्छति चेत् अद्य वदतु नो चेत् चिन्ता मास्तु
आम् महोदय दीपः न ज्वलति यतः विद्युत् नास्ति सः परीक्षायाम् अनुतीर्णः यतः सम्यक् न पठितवान्
इदानीं तत्र परिवर्तनं कृत्वा वदति वा
अतः
प्रथमवाक्यं किम् आसीत्
दीपः न ज्वलति यतः विद्युत् नास्ति
दीपः न ज्वलति यतः
विद्युत् नास्ति
यतः इदानीं
विद्युत् नास्ति
अतः
दीपः न ज्वलति
समीचीनं तदेव द्वितीयवाक्ये अपि करोतु
अतः सः सम्यक् न पठितवान्। सः सम्यक् न पठितवान् अतः परीक्षायाम् अनुतीर्णः।
अनुतीर्णः, समीचीनं भगिनि। यतः अस्ति चेत् अतः इति शब्दस्य आवश्यकता नास्ति। तत्र वयं यथा तथा इति पूर्वे कृतवन्तः, किन्तु तादृश अत्र नास्ति। तत्र यथा अस्ति चेत् तथा अपि भवति, अथवा यदि अस्ति चेत् तर्हि भवितव्यं, किन्तु अत्र तादृशः नास्ति। यतः अस्ति चेत् अतः आवश्यकं नास्ति, एकमस्ति चेत् पर्याप्तम्, अतः अथवा यतः, तदेव विषयः। अस्तु, अपि अन्य गृहपाठः आसीत्, तदस्ति चेत् नो चेत् इति उपयुज्य।
दिनम् इति नपुंसकलिङ्गमेव भविष्यति महोदय, पुल्लिङ्ग नास्ति
तत्र।
वामनाप्ते पश्यामि,
वामनाप्ते मध्ये एतद् अस्ति,
नपुंसकलिङ्गमेव अस्ति महोदय।
अस्तु
अमरकोशे दत्तवान्,
नपुंसकलिङ्गमेव अस्ति। आप्ते तु समीचीनम् अस्ति, स्पोकन् संस्कृत् मध्ये तु दोषाः सन्ति, सर्वदा सम्यक् इति न वक्तुं शक्नुमः, किन्तु तद् दृष्ट्वा किम् अस्ति इति ऊहा कर्तुं शक्नुमः। अतः अहं पृष्टवान् यदि उदाहरणम् अस्ति चेत् तत्र प्रत्येकस्य प्रयोगस्य उदाहरणं मनसि स्थापयामः चेत् सुलभं भवति, एतादृशरूपम् अहं दृष्टवान् इति। अतः उदाहरणं, अस्तु अस्तु, धन्यवादः भगिनि। अस्तु, इदानीं चेत् नो चेत् इति विषयः, अग्रिमविषयः। तत्र चेत् इत्युक्ते किम्? नो चेत् इत्युक्ते therefore इति तु अतः, नो चेत् अदर्वैस् अथवा इफ् नाट् इति तादृश। अस्तु अस्तु, इदानीं कः वदति पश्यामः। रमाबाई भगिनी, भवती वदति वा चेत् नो चेत् इति उपयुज्य वाक्यम्।
मम मित्रम् आगच्छति चेत् अहं चलनचित्रं गमिष्यामि, नो चेत् न। रैल्याने शायिकारक्षणम् अस्ति चेत् अहं बेङ्गलूरुनगरं गमिष्यामि, नो चेत् न।
किम् अस्ति चेत् भगिनि?
शायिकारक्षणं, स्लीपर् कोच्, स्लीपर्,
अस्तु अस्तु,
स्लीपर्
अस्तु, शायिका,
शायिकारक्षणं।
अस्तु अस्तु अस्तु, अस्तु भगिनि, समीचीनं, अस्तु अस्तु, धन्यवादः भगिनि। अस्तु अस्तु, रघुपतिमहोदय चेत् नो चेत् इति वदति वा? चिन्ता मास्तु। अस्तु, वंशी सुधा भगिनि।
आं महोदय, बुभुक्षा अस्ति चेत् खादतु, नो चेत् उपवासं करोतु।
अस्तु,
चेत् नो चेत् प्रयोगं ज्ञातुं चेत् द्वौ वाक्यानि लिखन्तु, नो चेत् पुनः पठन्तु।
अस्तु भगिनि, बहु समीचीनमस्ति,
धन्यवादः।
बहुवारं चेत् नो चेत् वाक्य आगच्छति। अस्तु, समीचीनम्। अस्तु, शोभा भगिनि वदति वा?
आं महोदय, आहारे लवणम् अस्ति चेत् रुचिः अस्ति, नो चेत् न। वर्षासमये वृष्टिः अहं चिन्तयामि महोदय, वृष्टिः इफ् ऐ जस्ट् यूस् वृष्टिः सम्यक् अस्ति वा वृष्टिः समये?
अस्तु अस्तु अस्तु
समये समये आगच्छति
तद् ग्रीष्मकाले इति ग्रीष्म ऋतौ इति तादृशप्रयोगः अपि अस्ति, किन्तु भवती तद् न इच्छति, केवलं
वर्षासमये when it's raining.
Raining.
महोदय एव सहायं करोतु वर्षासमये. ओके
वदतु भगिनि, वदतु भगिनि. अहं चिन्तयामि
वर्षासमये सूर्यप्रकाशम् अस्ति चेत् इन्द्रधनुष् धनुष् भवति, नो चेत् न. सम्यक् अस्ति वा महोदय?
नो चेत् न, सम्यक् अस्ति भगिनि.
वर्षासमये अथवा
तद् तदेव एकं चिन्तयामि तत्र. वर्षासमये वर्षा, किन्तु वर्षा
इति पदस्य अर्थं रेन् अस्ति, परन्तु समये
एतत् कर्तुं शक्नुमः.
वर्षाकाले सीजन् अस्ति न भगिनि?
केवलं यदा वर्षा भवति इति.
महोदय यदा वर्षा भवति
तदा
सूर्यप्रकाशम् अपि अस्ति चेत् इन्द्रधनुस् भवति. आम् महोदय, धन्यवादः महोदय.
अस्तु अस्तु
महोदय. वर्षा पुंलिङ्ग आर् स्त्रीलिङ्ग?
वर्षा इति स्त्रीलिङ्गपदम् इति मन्ये भगिनि. वर्षा इति दीर्घ अकारः अस्ति,
लैक् रमा.
रमा सत्यं,
धन्यवादः.
वर्षा इति स्त्रीलिङ्गपदम् अस्ति. अन्यत् रूपं चिन्तितं वर्षायाः समये इति, किन्तु यदि वर्षा भवति तद् सुलभमेव अस्ति. अस्तु, नरेश् महोदय वदति वा?
आं महोदय. भवान् अस्वस्थ अस्ति चेत् औषधं स्वीकरोतु, नो चेत् अनावश्यकम् औषधं मा स्वीकरोतु. किञ्चित् क्रेतुम् इच्छति चेत् आपणं गच्छतु, नो चेत् गृहे तिष्ठतु.
समीचीनं महोदय, समीचीनं. वेणुगोपाल महोदय.
आं महोदय. अग्निः अस्ति चेत् प्रकाशः भवति, नो चेत् अन्धकारम् अस्ति. वृष्टिः भवति चेत् कार्यालयं न आगच्छतु, यदि नो चेत् अवश्यम् आगच्छतु.
समीचीनं महोदय. उषा भगिनी वदति वा?
आं महोदय. भवती संस्कृतं पठति चेत् ज्ञानं भवति, नो चेत् न भवति. समयः अस्ति चेत् त्वं मम गृहम् आगच्छतु, नो चेत् मास्तु.
तत्र त्वम् इति अस्ति खलु भगिनि? त्वम् इति आसीत् खलु, त्वम् इति, त्वं मम गृहं, तदनन्तरं किम् आसीत् भगिनि?
गच्छसि, त्वं मम गृहम्
आगच्छतु. आगच्छतु इति आसीत्. तत्र तत्र किम् अस्ति इति, तत्र भवती जानाति खलु, तत्र अहं भयम् इति अस्ति, तदनन्तरं त्वं यूयम् इति अस्ति खलु, भवती जानाति खलु? न न, एकनिमिषं भगिनि. त्वं यूयम् इति जानाति खलु? तदनन्तरम् अस्ति सः, रामः, सीता, सर्वं. तत् अहं वयम् इति तत्तु उत्तमपुरुषः इति वदामः. त्वं आवां, त्वं युवां यूयम् इति मध्यमपुरुष इति वदामः खलु तत् त्यक्त्वा सर्वं सर्वं किमस्ति प्रथमपुरुषः इति वदामः खलु
सर्वम्
एतद्
सर्वं
एतद् अहम् अहम् आवां वयं त्वं युवां यूयम् एतत् उत्तमपुरुषः मध्यमपुरुषः अस्ति अन्यत् सर्वम् एतत् विहाय तद् लीविङ्ग् एक्सेप्ट् फोर् दिस् सर्वम् अन्यत् सर्वं किं वदामः तत् प्रथमपुरुषः इति वदामः खलु
प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः
हा इदानीं त्वम् इति मध्यमपुरुषः अस्ति खलु तत्र किम् अस्ति भवान् आगच्छतु इति भवति किन्तु त्वम् आगच्छ इति अस्ति पुरुषभेदः भवति
गच्छति गच्छतः गच्छन्ति गच्छसि गच्छतः गच्छत
हा तत्र त्वम् इति अस्ति मध्यमपुरुष रूपभेदः अस्ति आगच्छतु इति लोट् लकारः इति वदामः तत्र आगच्छ त्वम् आगच्छ इति भवति
धन्यवादः
हा इदानीं वाक्यं पुनरेकवारं वदतु भगिनि तत्र
समयः अस्ति चेत् त्वं मम गृहम् आगच्छ नो चेत् मास्तु
समीचीनम् अस्ति हा अन्यत् वाक्यम् अस्ति अस्ति चेत् वदतु नास्ति वा अस्तु
नास्ति
अस्तु अस्तु भगिनि भानुचैतन्य महोदय वदति वा
हरि ओम् महोदय
चिन्तितवान्
इदानीं किञ्चित् कालम् अनन्तरं वदामि
अस्तु महोदय अस्तु चिन्ता मास्तु
अहं वदामि महोदय
वदतु वदतु महोदय रघुपति महोदय वदतु
गृहपाठं कृतं चेत् श्रावयतु नो चेत् प्रयत्नं करोतु
समीचीनं
धनम् अस्ति चेत् दानं करोतु नो चेत् दानं स्वीकरोतु
समीचीनं महोदय समीचीनम् अस्तु तत्र अस्तु बहु समीचीनमस्ति सर्वे गृहपाठं कृतवन्तः समीचीनं तत्र गतवर्गे प्रश्नद्वयम् आगतम् आसीत् प्रथमम् अस्ति नो चेत् इति किम् अस्ति इति तत्र अहं सर्वत्र किञ्चित् दृष्टवान् किन्तु यद् अहम् अवगच्छामि तदस्ति नो इति केवलं न इति पदस्य अन्यरूपं तावदेव तत्र कुत्रापि किमर्थम् एतत् अन्यत् रूपम् अस्ति अन्यत् रूपस्य कारणं किम् इति कुत्रापि न लभ्यते अतः केवलं नो चेत् इत्युक्ते न नो इत्युक्ते न इति तावदेव अस्ति तत्र नो चेत् अपि अव्ययम् एव अस्ति तत्तु चेत् इति अव्ययं तत् जानीमः नो चेत् अपि अव्ययम् एव अन्यप्रश्नः आसीत् तत्र निश्चयेन इति वयं दृष्टवन्तः तत्र अभ्यासपुस्तके कुत्र आसीत् एतत् पुटसङ्ख्या 70 मध्ये तत्र किन्तु निश्चयेन प्रायशः किल इति अस्ति तत्र किल किन्तु प्रायशः तद् अव्ययम् इति जानीमः किन्तु निश्चयेन इति तत्र तदपि अव्ययमेव अस्ति तत्र एकः प्रश्नः अस्ति तत्र निश्चयः इति पदम् अस्ति कोऽपि जानाति वा निश्चयः इत्युक्ते किम् इति निश्चयेन इति सर्टन्लि अस्ति निश्चयः
निश्चय इत्युक्ते agreement or something like that in that
nischaya decision
nischaya decision decision
decision nischaya iti padam asti pullinga padam asti nischaya iti rama shabdavat akaranta pullinga shabdah athva deva shabdah pullinga akaranta pullinga shabdah deva shabdasya tritiya vibhakti ekavachana rupam kim asti
devatena
devah iti shabdah देवेन इति अस्ति इदानीं निश्चयः तस्य तृतीयविभक्ति एकवचनरूपं किम् अस्ति निश्चयेन इति अस्ति अस्तु अतः निश्चयेन इति पदं निश्चयपदस्य तृतीयविभक्तिरूपं भवितुम् अर्हति तद् एकम् अस्ति तद् एकं रूपं द्वितीयरूपं निश्चयेन सर्टन्ली इति यद्वदामः तद् तद् तस्मिन् अर्थे अपि निश्चयेन इति पदमस्ति किन्तु तद् पदं तु अव्ययम् अस्ति अतः रूपं समानम् अस्ति अर्थभेदः अस्ति न वा इति प्रश्नः एकम् अस्ति अव्ययम् अन्यत् अस्ति विभक्तिरूपम् अत्र रूपभेदः नास्ति निश्चयेन निश्चयेन एव अस्ति अतः अर्थभेदः अस्ति वा कोऽपि वक्तुम् इच्छति वा निश्चयेन तृतीयविभक्तिरूपम् अस्ति चेत् अर्थः अन्यत् अस्ति वा सर्टन्लि इति अर्थः नास्ति इति प्रश्नः
सर्टन्लि इति निश्चयेन अर्थमस्ति महोदय
तत्तु जानामि महोदय निश्चयेन इति पदस्य अर्थः सर्टन्लि इति अस्ति किन्तु तद् अर्थः अस्ति चेत् तद् अव्ययरूपं भवति अस्तु इदानीं निश्चय इति पदम् अस्ति तस्य तृतीयविभक्तिरूपं निश्चयेन इति अस्ति किन्तु तत् तृतीयविभक्तिरूपं खलु तद् किम् अस्ति तद् किं वदामः तद् तत्र किञ्चित् एव अर्थभेदः किञ्चित् स्थापयामश्चेत् सुलभं भवति अतः अहं कोऽपि नरेश वेणुगोपाल् महोदय किम् उक्तवान् अस्तु अहं सः सः किमपि निश्चितवान् तस्य निश्चयः अभवत् तेन निश्चयेन अन्य कोऽपि सन्तुष्टः भवति इदानीं रामः किमपि निश्चयं करोति रामस्य निश्चयेन लक्ष्मणः सन्तुष्टः तत्र निश्चयेन इति सर्टन्लि नास्ति खलु रामस्य निश्चयेन लक्ष्मणः सन्तुष्टः तत्र निश्चयेन इति सर्टन्लि निश्चयेन पदस्य निश्चयेन इति अर्थः नास्ति अस्तु अस्तु अतः अर्थभेदः अस्ति किन्तु निश्चयेन इति पदमपि अव्ययम् एव अस्ति अस्तु एतदेव वक्तुम् इष्टवान् अस्तु इदानीम् अग्रे गच्छामः अद्यतनविषयः अस्ति यः सः यासा इति अत्र कः पठति अस्तु पश्यामः वेणुगोपाल् महोदय पठति वा
उदाहरणं दृष्ट्वा एते के इति लिखतु क्रीडालुः यः क्रीडति सः क्रीडालुः गायकः यः गायति सः
गायकः सः गायकः इदानीं किं किम् अस्ति तत्र यः किमपि कार्यं करोति तत् कार्यम् उपयुज्य वयम् एकं नाम कर्तुं शक्नुमः क्रीडालुः एकं पदं कर्तुं शक्नुमः क्रीडालुः इति अथवा गायकः इति पदं कर्तुं शक्नुमः यत् कार्यम् अथवा क्रिया अस्ति तत् उपयुज्य नूतनपदं कर्तुं शक्नुमः. अस्तु, तत्र यः इति. अस्तु, तत्र शोभा भगिनी अग्रिमं करोति वा?
आं महोदय. भाषणकारः यः भाषणं करोति सः भाषणकारः अथवा यः भाषति वक्तुं शक्नोमि वा?
यः
भाषति सः भाषणकारः.
भाषति इति आत्मनेपदे अस्ति वा अथवा उभयपदे अस्ति?
भाषते आत्मनेपदे अस्ति न महोदय?
किन्तु भाषति इति नास्ति इति मन्ये महोदय. भाषते इति
भाषति नास्ति. यः भाषणं करोति भाषति नास्ति वा?
भाषते एव अस्ति.
भाषते एव अस्ति. यः भाषणं करोति सः भाषणकारः.
यः भाषते तद्
भाषते.
यः भाषते
यः भाषते सः भाषणकारः
अथवा यः भाषणं करोति सः भाषणकारः.
आम् महोदय.
द्वयमपि साधु एव अस्ति. अस्तु, इदानीम् अग्रे रमाबाय् भगिनी अग्रिमम्.
महोदय, चालकः यः वाहनं चालयति सः चालकः.
समीचीनं भगिनि, समीचीनं. यः चालयति सः चालकः. समीचीनम्. इदानीं नरेश महोदय अग्रिमम्.
लेखकः यः लेखनं लिखति सः लेखकः.
यः लिखति सः लेखकः.
यः लिखति सः लेखकः.
यः अस्तु. समीचीनम्. वंशी सुधा भगिनी अग्रिमम्.
आम् महोदय. वैद्या या चिकित्सां करोति सा वैद्या.
तत्र किं कः भेदः? पूर्वं किम् आसीत्, इदानीं किम् अस्ति, नूतनं किमपि अस्ति वा?
पुल्लिङ्गे अस्ति महोदय.
पूर्वं यः सः इति पुल्लिङ्गरूपम् अस्ति, इदानीं या सा इति स्त्रीलिङ्गरूपम् अस्ति. अस्तु, अग्रिमं करोतु.
नर्तकी या नर्तति सः नर्तकी नृत्यति. या नृत्यति सा नर्तकी.
समीचीनं भगिनि. अस्तु, इदानीम् उषा भगिनी अग्रिमं करोति वा?
या पाठम् अध्यायति सा अध्यापिका.
सा अध्यापिका. समीचीनं भगिनि. अस्तु, अग्रे भानुचेतनी महोदय अन्तिमम्.
या कार्यालये कार्यं करोति सा कार्यकर्त्री.
समीचीनं महोदय. इदानीं तद् दृष्ट्वा कोऽपि वदति वा नपुंसकलिङ्गरूपं किं भवति इति? यत् तत्. अस्तु, इदानीं भवन्तः एव एतादृश वाक्यं रचयन्तु. अस्तु, अहं पृच्छामि. अस्तु, वेणुगोपाल महोदय.
लेखनी लेखनी यत्
अत्र महोदय, अत्र डेफिनेशन् इति मा चिन्तयतु. तत्र अहम् अन्यत् रूपमपि वदामि. एकम् उदाहरणं ददामि, सुलभं भवति. यः प्रकोष्ठे अस्ति सः रमेशः. अर्थः कः?
यः प्रकोष्ठे अस्ति सः रमेशः. One that is in the
room.
Room. one that is in the room is Ramesha, is Ramesh.
He who is in the room is Ramesh.
He is in the room is Ramesh.
Yaha prakoshti asti saha Ramesha. Atah yaha saha athva yaha saha bahu sulabham asti kartum.
Asti.
Idanim kim vadatu.
Yat balakaha kridati tat kandukam.
Yet
balakaha kridati tat kandukam.
Tatra kandukena kridati iti asti. Tatra yena iti rupam asti. Kinchit bhinam asti.
Kandukena
yaha iti tadeva prakoshte atva karyalaye tad tadrushrupam eva vadatu sulabham vakyam vadatu. Chinta mastu bahu nutana vakyam iti ma chintayatu kimapi. Astu, chintayatu, chintayatu, anyakanyakupi karati, astu. Naresh Mahodaya, vadati va.
Yat vikasati, tat pushpam asti.
Yat vikasati, tat pushpam, samichinam, astu. Ramabai Bhagini.
Mahodaya, eha sarvani shastrani janati. Saga
Shastrajnyah. Shastrajnyah. Samichinam Bhagini. Samichinam. Astu. Idanim Usha Bhagini Vadativa.
Yaha Kavitam Likati Saha Kavihi Asti.
Yaha Kavitam Likati.
Saha Kavihi Asti.
Saha Kavihi. Samichinam Bhagini. Danyavadaha. अस्तु शोभा भगिनी.
यत् रुचिः मधुरा आहारे अस्ति तत् अन्य आहारे नास्ति.
तत्र रुचिः स्त्रीलिङ्गे स्त्रीलिङ्गे अस्ति भगिनी.
क्षम्यतां महोदय. या रुचिः मधुरे अस्ति तारुचिः अन्या आहारे सारुचिः अन्या आहारे नास्ति.
अन्ये आहारे नास्ति.
या रुचिः मधुरे अस्ति सारुचिः अन्ये आहारे नास्ति.
समीचीनं भगिनि. रघुपति महोदय. अस्तु
वदामि महोदय.
अस्तु वेणुगोपाल महोदय वदतु.
यः विद्यालये पाठयति सः अध्यापकः.
समीचीनं महोदय. यः इदानीं वदति सः निरञ्जनः. तावदेव. बहु सुलभम् अस्ति यः सः इति.
अहं मन्ये भवतः नपुंसकलिङ्गं
भवान् चिन्तितवान्. अस्तु अस्तु, नपुंसकलिङ्ग करणीयम् इति. अस्तु अस्तु अस्तु. यः सः यास अथवा यत् तत् त्रयमपि साधु एव. अस्तु
महोदय, अहं करोमि.
अस्तु अस्तु, रघुपति महोदय करोतु.
यत् चिन्तितं तत् वदामि. यत् मया चिन्तितं तत् वदामि. यः अन्यायं करोति सः निश्चयेन तस्य फलम् अनुभवति.
समीचीनं महोदय. समीचीनं. अस्तु अस्तु, वंशी सुधा भगिनि.
महोदय, यत् पुस्तकं भवान् पाठयति तत् पुस्तकं मम पार्श्वे अपि अस्ति.
समीचीनं भगिनि.
यत् कार्यं पुल्लिङ्गं वा नपुंसकलिङ्गं?
नपुंसकलिङ्गं.
यत् कार्यं करोति तत् परिणामम् अनुभवति.
तस्य परिणामः
तस्य तस्य परिणाम इदानीं वाक्यम् अशुद्धमेव न महोदय यत् कार्यं करोति तत्
अस्तु अस्तु
फलम् अनुभवति फलम् अनुभवति फलं नपुंसक
तत्र तस्य इति अस्ति तस्य किन्तु तदपि यत् भवती उक्तवती तत् साधुवाक्यमेव अत्र उदाहरणं नास्ति सत्यं किन्तु साधुवाक्यमेव तत्र सर्वत्र यः सः इति आवश्यकता नास्ति अस्तु अहं पूर्वम् एकं वाक्यम् उक्तवान् यः प्रकोष्ठे अस्ति सः रमेशः इदानीं अन्या रीत्या अहं वयं वक्तुं शक्नुमः यः प्रकोष्ठे अस्ति तस्य नाम रमेशः तदपि साधु अस्ति यः सः अथवा यः तस्य तेन सर्वं तादृशरूपं भवितुम् अर्हति कर्तुं शक्नुमः अतः वंशीसुधा भगिनी भवत्याः वाक्यम् अशुद्धम् इति मा चिन्तयतु अस्तु अस्तु वदतु
या गायति सा मम पुत्री
अस्तु या अत्र गायति सा मम पुत्री समीचीनं भगिनि भानुचेतिनी महोदय वदति वा किञ्चित् उच्चैः वदतु महोदय
यः चित्तम् अपहरति सः कृष्णः
अस्तु समीचीनं महोदय समीचीनम् अस्तु कोऽपि न उक्तवान् वा सर्वे उक्तवन्तः अन्यत् वाक्यं वक्तुम् इच्छति चेत् कृपया वदतु रमाबाई भगिनी अन्यत् वाक्यं वक्तुम् इच्छति वा
आं महोदय या पचति सा मम माता कुम्भं करोति सः कुम्भकारः या गायति सा गायिका
समीचीनं भगिनि
या तत्र तिष्ठति सः मम पुत्रः यः तत्र तत्र तिष्ठति सः मम पुत्रः
समीचीनं भगिनि नरेश महोदय वक्तुम् इच्छति वा
यः तत्र तिष्ठति सः विद्यालयं न गच्छति
सः विद्यालयं न गच्छति समीचीनं महोदय अस्तु इदानीं यः सः या सा अपि यत्तत् तदेव अग्रे अपि अस्ति नपुंसकलिङ्गे अस्ति तदपि एकवारं पश्यामः अस्तु तत्र रमाबाई भगिनी भवती एव अग्रिमं यत्तत् इति पठति वा तत्र
अस्तु महोदय एतानि वाक्यानि पठतु मम समीपे यत् पुस्तकम् अस्ति तत् अन्यत्र नास्ति विदेशे यत् तत्र तन्त्रज्ञानम् अस्ति तत् भारते नास्ति अध्यात्मविषये भारतीयानां यत् चिन्तनम् अस्ति तत् अपूर्वम्
तत् अपूर्वम् अस्तु अस्तु तत्र
मम समीपे यत् शाटिका अस्ति तत् मम भगिन्याः समीपे अपि अस्ति
किन्तु तत्र शाटिका इति पदस्य लिङ्गं किं भगिनि अत्र यत् इति नपुंसकलिङ्गे एव भवति भगिनि
ओ आम् आम् महोदय समीरम् मम समीपे यत् वस्त्रम् अस्ति तत् अन्यत्र नास्ति
अथवा तद् तद् मम भगिन्याः
समीपे अस्ति
अथवा नास्ति। हा समीचीनं भगिनि, समीचीनं। हा अस्तु, इदानीं केवलं यत् तत् इति उपयुज्य, हा इदानीं यः सः मास्तु, या सा मास्तु, केवलं यत् तत् नपुंसकलिङ्गरूपमेव इदानीं द्रष्टुम् इच्छामः इदानीम्। अस्तु, तत्र कः? अस्तु, शोभा भगिनी वदति वा नपुंसकलिङ्गे इदानीं यत् तत्?
यत् अगेन् ऐ ट्रैङ्ग् टु इस् रुचिः महोदय, स्त्रीलिङ्गमस्ति। फलं पत्रं
पर्णं,
यत् सुन्दरं, यत् पर्णम् अस्ति तत् अन्य पर्णं नास्ति, सम्यक् नास्ति न महोदय?
तत् अन्यत् पर्णं नास्ति, हा किञ्चित् अथवा तत्, हा यत् पर्णं, यत् पुष्पं,
यत् सौन्दर्यं, यत् पर्णस्य अस्ति,
यत् सौन्दर्यं पर्णे अस्ति,
यत् सौन्दर्यं पर्णे, ऐ मीन् दिस् पर्णे, इदं पर्णे अस्ति,
यत् सौन्दर्यं,
पुष्पम् उपयुज्य करोमि महोदय, यत् सौन्दर्यम्
अस्मिन् पुष्पे,
अस्मिन् पुष्पे अस्ति तत् अपूर्वम्,
तत् अपूर्वं, समीचीनं भगिनि। हा समीचीनं,
धन्यवादः महोदय।
हा अस्तु, उषा भगिनी वदति वा?
आं महोदय, भारते यत् उत्तमज्ञानम् अस्ति तत् विदेशे नास्ति।
हा समीचीनं भगिनि, हा समीचीनं। हा वेणुगोपाल् महोदय, इदानीं यत् तत् इति नपुंसकलिङ्गवाक्यं,
आं महोदय, यत् कन्दुकेन सह बालकः क्रीडति तत् नीलवर्णम् अस्ति,
तस्य नीलवर्णम् अस्ति, अस्तु
तत् नीलवर्णम् अस्ति महोदय,
किन्तु नीलवर्णम् इत्युक्ते तत् ब्लू एव, तेन एव सः क्रीडति इति, हि प्लेस् वित् ब्लू कलर् इति भवति। अथवा एतद् कर्तुं शक्नोति यत् अस्तु
यत् फलं, यत् वृक्षेण वृक्षे फलमस्ति तत् मधुरमस्ति,
न तत् तत् फल तत् फलं मधुरम् अस्ति, समीचीनं महोदय। अस्तु, अथवा तदपि, अथवा अन्यं यत् फलं तत्र पश्यति तत् आम्रफलम् अस्ति। अस्तु अस्तु, कः न उक्तवान्? रघुपति महोदय,
यत् वाक्यम् अहं कृतवान् तत् अहम् इदानीं श्रावयामि।
हा समीचीनम्,
यत् उष्णम् अत्र अस्ति तत् सर्वत्र अस्ति।
हा समीचीनं महोदय, हा अस्तु, वंशीसुधा भगिनी वक्तुम् इच्छति वा?
यत्
यत् तत् इति, हा
यत् अहं वदामि तत् सत्यम्।
अस्तु भगिनि, हा समीचीनं, हा अस्तु, भानुचेतनी महोदय इदानीं वदति वा?
यत् लोकयानं बेङ्गलूरुनगरं गच्छति तत् एतत् स्थानके न आगच्छति,
तत् स्थानके नास्ति, अथवा नास्ति, ओ न आगतं, न आगतम्, हेज़् नाट् कम् इति भवान् किम् उक्तवान् तत्र?
हेज़् नाट् कम्,
न आगच्छति, तत् न आगच्छति, किन्तु पुनरेकवारं
स्थानके, एतत् स्थानके न आगच्छति,
एतत् स्थानकं न आगच्छति,
महोदय,
हा कर्मपदं भवति तत्र न आगच्छति. समीचीनं महोदय. अस्तु, अन्य कोऽपि उदाहरणं कोऽपि वक्तुम् इच्छति वा? सर्वे उक्तवन्तः इति मन्ये.
यत् भवनम् अहं दृष्टवान् तत् अहं क्रेतुं न शक्नोमि.
तत्
तत् अहं क्रेतुं न शक्नोमि.
क्रेतुं न शक्नोमि. अस्तु महोदय, समीचीनं. हा अस्तु, अन्य कोऽपि?
अहं प्रयत्नं करोमि महोदय.
अस्तु,
यत् माधुर्यं संस्कृतभाषे अस्ति तत् अन्यभाषे नास्ति.
तत्र भाषा इति भवति, स्त्रीलिङ्गे अस्ति.
भाषायां,
भाषायां
यत् माधुर्यं संस्कृतभाषायाम् अस्ति तत् अन्यभाषायां नास्ति.
समीचीनं भगिनि. तत्र तत् अन्यां भाषायां नास्ति अथवा अन्या तत्र किमस्ति? अन्यासु इति प्रायशः अन्यासु भाषा
अन्यासु भाषायां
भाषासु
भाषासु अन्यासु भाषासु
भाषासु इति बहुवचनरूपमपि कर्तुं शक्नुमः.
समीचीनं.
समीचीनं. रमाबाई भगिनी, अन्यत् वाक्यम् अस्ति वा?
अहं वदामि, सम्यक् वा न वा?
अस्तु अस्तु.
सज्जनानां यत् धर्मचिन्तनम् अस्ति तत् धर्मचिन्तनं दुर्जनानां नास्ति.
समीचीनम् अस्ति भगिनि, समीचीनं. समीचीनमेव. अस्तु अस्तु, धन्यवादः. अनेकानि वाक्यानि वयम् अद्य श्रुतवन्तः. अस्तु, इदानीम् अग्रे गच्छामः. इदानीं नूतनविषयः अस्ति यद्यपि तथापि इति. तत्र कीदृश यदा तदा इति दृष्टवन्तः, यथा तथापि दृष्टवन्तः, किन्तु एतत् नूतनम् अस्ति यद्यपि तथापि. तत्र अपि इति द्विवारम् आगच्छति, अपि. अस्तु, तत्र कः पठति? उषा भगिनी पठति वा तत्र?
आं महोदय. सः निर्धनः दानं करोति.
भगिनि, तत्र रक्तवर्णे पूर्वम् अस्ति, तदपि कृपया एकवारं पठतु. अत्र इति वाक्यद्वयं यद्यपि तथापि तस्य अधोभागे अत्र वाक्यद्वयं लिखितम् अस्ति इति उदाहरणस्य पूर्वम्.
उदाहरणस्य पूर्वं यद्यपि सः निर्धनः
न न तस्य तस्य पूर्वम् अत्र वाक्यद्वयम्
अत्र वाक्यद्वयं लिखितम् अस्ति तत्
उदाहरणानुगुणम्
अनुगुणम् एकं वाक्यं कृत्वा लिखतु. यथा सः निर्धनः दानं करोति. यद्यपि सः निर्धनः तथापि दानं करोति.
इति अस्ति. अस्तु, तत्र किमस्ति? वाक्यद्वयम् अस्ति. सः निर्धनः इति वाक्यमस्ति, दानं करोति इति वाक्यमस्ति. तं वाक्यद्वयं मिलित्वा एकमेव वाक्यं वदामः. तत्र यद्यपि तथापि उपयुज्य यथा वयं कृतवन्तः, यतः ततः इति. तत्र वाक्यद्वयम् आसीत् तत्, किन्तु वयं तत् मिलित्वा एकं वाक्यं कृतवन्तः खलु. किन्तु अत्र यथा तथा अथवा यतः तत्र यतः अथवा अतः तत्र किमपि कारणं कार्यम् इति सम्बन्धः आसीत्, कास् एण्ड् एफेक्ट् इति. अत्रापि कारणं कार्यम् इति सम्बन्धः अस्ति वा? बिकास् इति तादृशरूपम् अस्ति वा तथापि इति? सः निर्धनः
सः निर्धनः दानं करोति.
यदि सः सः धनवान् अथवा सः धनिकः दानं करोति इति आसीत् चेत् सः धनिकः अतः दानं करोति इति वदामः. किन्तु तादृशरूपम् अत्र अत्र नास्ति खलु भगिनी, उषा भगिनि. अतः प्रश्नः यद्यपि इत्युक्ते किं, तथापि इत्युक्ते किम्? यद्यपि ईवन्दो अथवा आल्दो. स्टिल् नेवर् द लेस् इवन् देन् इति इवन् देन् इति अर्थः. अस्तु, इदानीं प्रथमवाक्यं करोतु भगिनि.
मम समयः नास्ति, भवत्याः गृहम् आगच्छामि. यद्यपि मम समयः नास्ति तदापि भवत्याः गृहम् आगच्छामि.
मम समयः नास्ति किन्तु भवत्याः गृहम् आगच्छामि इति अर्थः खलु.
महोदय, एकः प्रश्नः. यद्यपि यद्यपि यथा योगः अपि इति यण् सन्ति एव महोदय. यदि योगः अपि यदि योगः अपि यण् सन्ति तर्हि तथापि सवर्णदीर्घसन्धि अपि
सत्यं सत्यम् इति मन्ये भगिनि.
परन्तु इदानीं यदि तथा किं योजनं महोदय, यदि तथा यदा तदा यथा तथा.
एतत् नूतनरूपम् अस्ति तावदेव, तत्र सम्बन्धः किमपि नास्ति. तस्य
मूलरूप किम् अस्ति महोदय? यद् तदापि
एतदेव, एतदेव मूलरूपम् अस्ति. यद्यपि इति एव अस्ति, तदेव अहं तत्र तथा प्लस् अपि इति कृत्वा नूतनपदं कृतं, किन्तु तत्र सम्बन्धः नास्ति. तत्र एतदपि नूतनं पदम् इति एव चिन्तितुं शक्नुमः. अस्तु अस्तु, अग्रे इदानीं यद्यपि तथापि इति तस्य अर्थः सम्यक्तया भवतु इति तत्र अग्रे यत् उदाहरणमस्ति तत् कुर्मः. अस्तु, तत्र कः, रघुपतिमहोदय अग्रिमं करोति वा?
एकनिमिषं, मम समयः नास्ति.
तत् कृतम् अग्रिमम्.
ओके, सः बुद्धिमान्, परीक्षायाम् अनुत्तीर्णः. यद्यपि सः बुद्धिमान् तथापि परीक्षायां सः अनुत्तीर्णः. अनुत्तीर्णः
तत्र क्रियापदम् अस्ति इति क्रियापदं न लिखितं, किन्तु अस्ति अनुत्तीर्णः इति विशेषणं भवति तत्र. परीक्षायां सः अनुत्तीर्णः.
अनुत्तीर्ण इवन् दो हि इण्टेलिजेण्ट्, सः यद्यपि सः बुद्धिमान् आसीत् तथापि परीक्षायाम् अनुत्तीर्णः अभवत्.
अनुत्तीर्णः
एव,
अनुत्तीर्ण एव, तावदेव पर्यन्तं पर्याप्तम्. अस्तु, इवन् दो हिस् इण्टेलिजेण्ट् हि फेल्ड् दि एक्साम् इति. अस्तु, अग्रे नरेश् महोदय अग्रिमम्.
अहं भोजनं न कृतवान्, बुभुक्षा नास्ति. यद्यपि अहं भोजनं न कृतवान् तथापि बुभुक्षा नास्ति.
तथापि बुभुक्षा नास्ति, समीचीनं. वेणुगोपाल् महोदय अग्रिमम्.
आम् महोदय, अहम् अधिकं पठामि, स्मरणे न तिष्ठति. यद्यपि अहम् अधिकं पठामि तथापि स्मरणे न तिष्ठति.
स्मरणे न तिष्ठति, अवगच्छति खलु.
आं महोदय.
अस्तु, अग्रे वंशीसुधा भगिनी अग्रिमम्.
आं महोदय, यद्यपि किञ्चित् कष्टं भवति तथापि अहं योगासनं करोमि.
हा समीचीनम् अस्तु इदानीं शोभा भगिनी
अद्य भानुवासरः विद्यालयस्य विरामः नास्ति यद्यपि यद्यपि अद्य
क्षम्यतां भगिनी वदतु वदतु
हा यद्यपि अद्य भानुवासरः तथापि विद्यालयस्य विरामः नास्ति
हा समीचीनं भगिनी अस्तु हा इदानीं कः न उक्तवान् अस्तु रमाबाई भगिनी तादृशवाक्यं करो वदति वा
आम् महोदय यद्यपि यद्यपि बालकः सम्यक् पठति तथापि तस्य तस्य माता न तथापि तस्य माता न स्वागति वा
श्लाघयति एव
श्लाघयति श्लाघनं श्लाघति अथवा श्लाघयति किमस्ति
श्लाघयति इति अस्ति महोदय श्लाघन्ति
श्लाघति श्लाघयति इति मन्ये
श्लाघयति
हा श्लाघयति हा श्लाघयति समीचीनं भगिनि हा श्लाघयति तस्य माता न श्लाघयति अस्तु हा भानुचैतन्य महोदय वदति वा
यद्यपि भवन्तः व्यस्तः तथापि उत्तमं संस्कृतसम्भाषणं पाठयन्ति
समीचीनं यद्यपि तथापि इदानीम् अन्य कोऽपि अस्तु नरेश् महोदय अन्यवाक्यम् अन्यत् वाक्यं वदति वा
यद्यपि किमपि न इच्छति तथापि आपणं गच्छति
समीचीनं उषा भगिनी अन्यत् वाक्यम्
आं महोदय यद्यपि तस्य समीपे धनम् अस्ति तथापि सः दानं न करोति
न करोति समीचीनं भगिनि तथापि सः दानं न करोति रघुपति महोदय वदति वा
यद्यपि मम सम्भाषणसामर्थ्यं न्यूनम् अस्ति तथापि संस्कृतेन वक्तुं प्रयत्नं करोमि
समीचीनं महोदय अस्तु वंशी सुधा भगिनी वदति वा अन्यत् वाक्यं
यद्यपि आतपे अस्ति तदापि अहं भ्रमणं कर्तुं गच्छामि
तथापि अस्तु
तथापि अहं भ्रमणं कर्तुं गच्छामि
अस्तु इदानीम् एतत् लघुक्रीडा कुर्मः प्रथमभागं कोऽपि यद्यपि इति केवलं प्रथमभागं वदति तदनन्तरं अन्य कोऽपि तथापि इति भागं वदति अस्तु
आं महोदय
अस्तु किं कुर्मः यद्यपि अहं आरम्भं करोमि यद्यपि सः भोजनं कृतवान् इदानीम् अन्य कोऽपि वदतु तथापि अस्तु एतादृश कोऽपि प्रथमभागमेव वदतु
महोदय अहं प्रयत्नं करोमि यद्यपि अस्मिन् शाटिकायां मूल्यम् अधिकम् अस्ति यद्यपि अस्मिन् शाटिकायाः मूल्यं
क्षम्यताम् एतस्याः प्रायशः एतस्याः शाटिकायाः
एतस्याः शाटिकायाः मूल्यम् अधिकम् अस्ति
क्रीणामि
अस्तु समीचीनम् अस्तु इदानीं नूतनं केवलं यद्यपि इति
यद्यपि अहम् अभ्यासं करोमि
इदानीम् अन्यत् अन्य कोऽपि अहम् अभ्यासं करोमि
तदापि उत्तीर्णः
नास्मि अथवा न भवामि समीचीनम् असमीचीनम् अस्तु इदानीम् अन्य कोऽपि
यद्यपि अहं बहुवारं खादामि
यद्यपि अहं बहुवारं खादामि
तथापि
अथवा यद्यपि अहं बहुवारं खादामि तथापि अहं किमस्ति ह्रस्वः एव अस्मि
बुभुक्षाम्
महोदय
बुभुक्षाम् अनुभवन्
अथवा यद्यपि अहं बहुवारं खादामि तथापि अहं कृशः एव अस्मि तदपि अस्तु अन्य कोऽपि
यद्यपि अहं ओके गो अहेड्
कः वक्तुम् इष्टवान्
यद्यपि कार्यानं मम समीपे अस्ति
इदानीं
तथापि अहं पादाभ्यां गच्छामि
तथापि अस्तु पादाभ्यां गच्छामि समीचीनं उषा भगिनी वदतु
यद्यपि अहं प्रतिदिनं चलामि तदापि
इदानीं
तथापि अहं स्थूला एव
तथापि
अस्तु अस्तु अन्य वाक्यम् अस्तु को भानुचेतिनी महोदय वदतु यद्यपि इति केवलं ताव तद् भागम् यद्यपि तथापि इति न वक्तव्यम् अन्य कोऽपि वदति केवलं यद्यपि इति
यद्यपि बहिः वातावरणं रम्यम्
इदानीम् अन्यत् कोऽपि तथापि
पुनरेकवारं वदतु महोदय
यद्यपि बहिः वातावरणं सुरम्यं
तथापि अहं चलामि
तथापि अहं
रम्यमस्ति
तथापि अहं न गच्छामि
बहिः न गच्छामि
यद्यपि अहम् अनारोग्यम् अस्मि
यद्यपि अहं
तथापि अहं पाकं करोमि
समीचीनं भगिनि तथापि अहं पाकं करोमि समीचीनम् अस्ति भगिनि अस्तु अन्यत् एतादृशवाक्यं
यद्यपि अहं गृहे बहु कार्याणि करोमि
इदानीं तथापि
मम
तृप्तिः नास्ति पश्यतु यद्यपि तथापि तस्य उपयोगं कीदृशम् अस्ति न अन्यत् वाक्यम्
अस्तु
यद्यपि अहं पाकं कर्तुं न शक्नोमि.
हा इदानीं तथापि
तदापि अहं खादितुं न शक्नोमि.
तत्र भागं पूर्वभागं किम् आसीत् महोदय? नरेश् महोदय पुनरेकवारं वदतु.
पाकं कर्तुं प्रयत्नं करोमि.
अस्तु. यद्यपि अहं पाकं कर्तुं न शक्नोमि तथापि
अहं प्रयत्नं करोमि.
तथापि अहं प्रयत्नं करोमि. समीचीनं. अस्तु. अन्यत् वाक्यं?
यद्यपि वयम् एकत्र नास्ति तथापि
नास्मः.
नास्मः सारि यद्यपि
तथापि अस्माकं वर्गं भवति.
वर्गं भवति. समीचीनं वाक्यमस्ति महोदय. अस्तु. अन्यत् कोऽपि वाक्यम्? अस्तु. इदानीं किं भवति? अस्तु अस्तु. कोऽपि वक्तुम् इच्छति? रमाबाई भगिनी वक्तुम् इच्छति वा?
न.
अस्तु 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 भगिनि. कोऽपि इच्छति चेत् इदानीमेव वदतु. अस्तु अस्तु. इदानीं किम् अभवत्? वयम् अभ्यासपुस्तकं समापितवन्तः. अभ्यासपुस्तकस्य समाप्तं जातम् इदानीं. तत्र बहु बहु उत्तमविषय अस्ति एतत्. अभ्यासपुस्तकं समाप्य
अभिनन्दन महोदय.
सर्वेभ्यः अभिनन्दनानि. बहु समीचीनम् अस्ति. इदानीं वयम् अग्रिमवर्गे गीतासोपानमेव कर्तुं शक्नुमः. तस्य पूर्वं प्रायशः एकां कथां पठामः, तदनन्तरं गीतासोपानम् आरम्भं कुर्मः. अस्तु. तत्र किं प्रश्नः अस्ति वा अत्र? अत्र अनेकाः विषयाः सन्ति. तत्र वयं सर्वं कृतवन्तः, केवलं किञ्चिदेव न कृतवन्तः इति मन्ये, किन्तु बहु कृतवन्तः अत्र. तत्र इदानीम् अद्य किं कुर्मः? केवलं समयः तु अस्ति. अस्तु. यद्यपि तथापि इति
सन्देहः समयः महोदय.
अस्तु अस्तु अस्तु.
कोऽपि सन्देहः मम सन्देहः नास्ति. कोऽपि सन्देहः
कस्यापि सन्देहः अस्ति चेत् इदानीं पृच्छतु. इदानीं पृच्छतु. अथवा यः सः इति तस्य तत्र यास इति रूपं बहु प्रसिद्धरूपम् अस्ति. सर्वे जानन्ति इति मन्ये. या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता इति. तत्र द्वितीयभागे किम् अस्ति? सा इति नास्ति, नमस्तस्य इति अस्ति.
यथा महोदय यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् विमुच्यते नमस्तस्मै.
तत्र यस्य इति पूर्वभागे अस्ति. समीचीनं. अतः किं जानीमः, केवलं यः सः इति तावदेव नास्ति, किन्तु यः इति शब्दस्य विभक्तिरूपमपि भवति. सः इति स्थाने अपि अन्य विभक्ति अपि भवितुम् अर्हति तत्र. तस्य यस्य इति भवति, अपि तस्मै इति सः इति स्थाने तस्मै इति भवति, यः इति स्थाने यस्य इति भवति. अतः अन्य विभक्तिरूपमपि उपयुज्य वयं वाक्यं रचितुं शक्नुमः. अतः तत्र यः सः यास यत् तस्य बहु
सर्वाणि
वदतु महोदय.
स, 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 सर्वाणि विभक्तीनाम् उपयोगं
कर्तुं शक्नुमः 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 महोदय, किन्तु उदाहरणं न जानामि, किन्तु कर्तुं शक्नुमः, तत्र निषेधः नास्ति
महोदय। एकः प्रश्नः महोदय, तत्र तत्र एकं वाक्यम् अस्ति, सः बुद्धिमान् परीक्षायाम् उत्तीर्णः इति तत्र एकम् एकवाक्यं दत्तवान्। तत्र बुद्धिमान् पदस्य विभक्तिः किं बुद्धिमान् इति विशेषणम् इति अस्ति अस्ति खलु?
सत्यं सत्यं, समीचीनं प्रश्नं। तत्र बुद्धिमान् इति सः बुद्धिमान् बुद्धिमान् इति सत्यं विशेषणमस्ति, सः उत्तमः उत्तमः रामः इति तादृशरूपमेव सः बुद्धिमान् इति, बुद्धिमान् इति पदस्य विभक्ति प्रथमाविभक्ति एव विशेषणम् अस्ति इति कृत्वा
सः हनुमान् अस्ति तथा वा महोदय?
किं भगिनि?
यथा हनुमान् पदम् अस्ति तथा
हा तत् पदं पदं समानम् अस्ति। हा हनुमान् भवान् इति व्याकरणरीत्या तत्र नकारान्तपदमस्ति, पुल्लिङ्गपदमस्ति, भवान् भगवान् बुद्धिमान् अभिमान्, यस्मिन् बुद्धिः अस्ति सः बुद्धिमान्, यस्मिन् बुद्धिः अस्ति सः बुद्धिमान्। यत्र वयं दृष्टवन्तः खलु यः सः इति, तदेव अस्ति अत्र यस्मिन्, किन्तु यस्मिन् बुद्धिः अस्ति सः बुद्धिमान्, यस्यां बुद्धिः अस्ति सा बुद्धि
बुद्धिमति
बुद्धिमति, यस्यां रूपम् अस्ति सा रूपवती, तत्र रूपवत् इति अस्ति रूपवती, बुद्धिमान् बुद्धिमति इति तादृशरूपं भवति। यस्यां यस्यां बुद्धिः अस्ति तत्र बुद्धिमत् इति प्रातिपदिकम् अस्ति, किन्तु भवत् इति शब्दस्य किन्तु भवान् इति प्रथमाविभक्तिरूपम् अस्ति, भगवत् इति प्रातिपदिकमस्ति, भगवान् इति प्रथमाविभक्तिरूपम् अस्ति, तादृश अपि बुद्धिमत् इति मूलरूपम् अस्ति, बुद्धिमान् इति प्रथमविभक्तिरूपम् अस्ति, भवान् इति शब्दस्य भवतः नाम किम् इति वदामः खलु, षष्ठीविभक्ति भवतः इति अस्ति, बुद्धिमान् इति शब्दस्य षष्ठीविभक्तिरूपं किम् अस्ति? बुद्धिमतः बुद्धिमतः इति तादृशरूपम् अस्ति। समीचीनं प्रश्नः वेणुगोपाल् महोदय। हा
एकः महोदय एकः प्रश्नः, कथम् अहं जानामि तकारान्तपदं या नकारान्तपदं?
मम समीपे एतत् किमपि नियमः नास्ति, केवलं दृष्ट्वा एव वयं वक्तुं शक्नुमः, रूपं दृष्ट्वा किञ्चित् विचित्ररूपं विभक्तिरूपं किञ्चित् साधारणरूपं नास्ति चेत् अस्तु एतत् अकारान्तः नास्ति इति दृष्ट्वा एव वक्तुं शक्नुमः भगिनि। तत्र नकारान्तपदे एव अपि भेदः तत्रापि अस्ति, राजन् शब्दः अस्ति, आत्मन् शब्दः अस्ति, हा सकारान्तशब्दः
अतः
किं महोदय
किञ्चित् पदेषु नकारस्य लोपः अपि भवति?
कथं कथं जानामि इति मम
प्रश्नः। तत्र
विद्यार्थी इति
विद्यार्थिनीति अस्ति,
अहं चिन्तयामि पुल्लिङ्गशब्दे एव अस्ति, परन्तु अहं पश्यामि चेत् विद्यार्थिना नकारान्तशब्दम् अस्ति,
पुल्लिङ्गमेव अस्ति विद्यार्थी इति, किन्तु तद् किन्तु नकारान्तशब्दः अस्ति, राजा इति
वदामः
तत्
नामन्
इति अपि, राजा इति नकारान्तशब्दः अस्ति राजन् इति, किन्तु महाराजा इति अकारान्तशब्दः अस्ति, तत्र उपसर्गः अस्ति चेत् किमपि स्थापयामः पूर्वं, तत्र भेदः भवति, तत्र तस्य रूपपरिवर्तनं भवति, अतः सर्वम् अनेक बहु किमपि अस्ति, सर्वं ज्ञातव्यम् इति नियमः तु नास्ति. यत् आवश्यकं, यत् यत् अस्मिन् मनसि स्थापितुं शक्नुमः तत् स्थापयामः. यत् यत् साधारणरूपम् अस्ति, यत् सर्वदा पश्यामः, तत् प्रथमं स्थापयामः. विशेषम् अस्ति, यत् विचित्रम् अस्ति, यत् केवलं दश दशेषु पुस्तकेषु एकवारमेव पश्यामः, तस्य उपयोगम् अस्ति, किन्तु यत् बहुवारं पश्यामः तस्य उपयोगम् अधिकम् अस्ति इति कृत्वा साधारणरूपं प्रथमं तस्य अभ्यासं कुर्मः. खलु,
यदा अहं पश्यामि, अहम् इति पदम् अस्मत् शब्दमेव आगच्छति. अस्मत् शब्दं कथम्, अहं सूत्रमस्ति महोदय, किञ्चित् सूत्रमे अस्ति, पाणिनिसूत्रे अस्ति, अस्मत् शब्द अहं किमर्थं परिवर्तनं भवति महोदय?
तत्सर्वं पाणिनिसूत्रेण एव, सूत्रेण एव वयं विभक्तिरूपं सर्वं कुर्मः, किन्तु तत् पाणिनिसूत्रम् इति यद् वर्गः, पाणिनिव्याकरणवर्गं यदस्ति, तत्र गच्छामः चेत् एतत् सर्वं सुलभं भवति. रूपभेदः अस्ति, किन्तु कार्यं तु सर्वदा एकमेव अस्ति. तृतीयाविभक्तिरूपम् आवश्यकं चेत् एतदेव पाणिनिसूत्रम् एकमेव अस्ति, तदेव तस्य उपयोगः एव करणीयमस्ति. किन्तु तत्र किं वदामः, पाणिनिसूत्रस्य रूपः कीदृशः अस्ति इत्युक्ते, किं करणीयं, बर्न् इति अथवा बायल् इति किमपि अस्ति, कार्यं तु एकमेव अस्ति, किन्तु वाट् यु यूस् टु इन्पुट् किम् अस्ति तत् दृष्ट्वा औट्पुट् किमपि भवति, तत् तावदेव. किन्तु तत् इदानीम् अस्माकं विषयः तु नास्ति, अस्माकं विषयः तु अकारान्ते इकारान्ते तदेव अस्ति. अग्रे गत्वा गीतासोपाने एव द्वितीयभागे हलन्तशब्दस्य विभक्तिरूपं किं तदपि पश्यामः. किन्तु प्रथमभागे अजन्तशब्दस्य एव विभक्तिरूपं, द्वितीयभागे द्वितीयभागे हलन्तशब्दस्य विभक्ति. हलन्त इत्युक्ते नकारान्त सकारान्त तत् सर्वं तद् द्वितीयभागे पश्यामः. अस्तु अस्तु, अग्रिमवर्गे प्रायशः एकां कथां पठामः, तदनन्तरं गीतासोपानं तस्य आरम्भं कुर्मः इति मन्ये. अस्तु, इदानीं समयः जातः, विरमामः. सर्वेभ्यः नमस्कारः, अभिनन्दनानि. धन्यवादः भगिनी, धन्यवादः.
मम अहं सर्वे अपि अभ्यासपुस्तकं समाप्तः कुर्मः.
अस्तु, एतादृश अनेकानि पुस्तकानि पठामः
महोदय.
अस्तु अस्तु,
धन्यवादः
धन्यवादः
धन्यवादः. नमस्कारः.